एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। देशस्य अर्थतन्त्रस्य अतिरिक्तम् गतिशीलस्य सम्पादनस्य उद्देश्येन नेपाल राष्ट्रकोषेण वर्तमान आर्थिक वर्षस्य मौद्रिक नीतिः ह्य सार्वजनिकृता वर्तते। वर्तमान आर्थिक वर्षस्य आयव्ययस्य उद्देश्यं प्राथमिकतां कार्यक्रमान् षोडश पञ्चवर्षीय योजनां राष्ट्रकोषस्य चतुर्थ रणनीतिक योजनां सम्बद्ध पक्षव्य प्राप्तान् परामर्शांश आधृत्य मौद्रिक नीतिः निर्मिता स्थिति नेपाल राष्ट्रकोषस्य अधिशासकः महाप्रसाद अधिकारी अज्ञापयत्। मौद्रिक नीतौ अर्थतन्त्रम् गतिशीलम् विधातुम् सावधानतया सहजतापूर्ण मौद्रिक नीतेः कार्यदिशे नैरन्तर्यम् प्रदत्तम् अस्तीति अधिशासकः अधिकारी असूचयत्। मौद्रिक नीत्या उत्पादनशील क्षेत्रेष् ऋण प्रवाहाय ऋण प्रवाहस्य गुणस्तरस्य सुधाराय च बलम् प्रदाय वित्तीय स्थायित्वस्य सम्पादनत्वेन नियामकीय व्यवस्था विहिता स्थिति अधिशासकः अधिकारी न्यश्चिनोत्। न्यूनतम सप्तानाम् मासान् वस्तु सेवयोः आयातस्य भण्डारणत्वेन वैदेशिक विनिमय संचितेः निर्धारणस्य मौद्रिक नीत्या लक्ष्यं गृहीतं वर्तते। एवमेव मौद्रिक नीत्या विस्तृत मुद्रा प्रदायस्य वृद्धेरनुपात 12%, नैज क्षेत्रं प्रति ऋण वृद्धेरनुपात 10.75% च भविष्यतीति प्रक्षेपणं विहितं वर्तते। मौद्रिक नीत्या राष्ट्रकोषेण कोषागारीय वृद्धिधनानुपात निक्षेप संकलनानुपातश्च न्यूनीकृतौ स्त। मौद्रिक नीतेः क्रियान्वयनेन समष्टिगत रूपेण आर्थिक स्थायित्वस्य प्रवर्धनम् वित्तीय समावेशीकरणस्य वर्धनम् सर्वकारेण गृहीतस्य आर्थिक लक्ष्यस्य प्राप्त्यै सहयोगश्च भविष्यन्तीति अपेक्षा नेपाल राष्ट्रकोषस्य अस्ति। प्रधानमन्त्री केपी शर्मा ओली भासते नेपाल राष्ट्रकोषेण ह्य सार्वजनिकृतया मौद्रिक नीत्या आपणे समर्थनम् स्वागतम् च प्राप्तेस्त। प्रधानमन्त्री मन्त्री परिषद कार्यालये राष्ट्रिय योजनायोगस्य नवनियुक्त पदाधिकारिणाम् शपथग्रहण कार्यक्रमम् ह्य सम्बोधयन् प्रधानमन्त्री ओली अगदत् मौद्रिक नीतेः सार्वजनिकरणानन्तरम् अतः परम् तीव्रगत्या कार्यम् सम्पाद्य नेपालीनाम् क्षमतायाः वृद्धिः कर्तव्यास्ति। प्रधानमन्त्री ओली देशस्य मनोबलस्य दुर्बलीभवनस्य दशायां षोडशावधिक योजना निर्मितास्ति, त्यतः समृद्ध नेपालस्य नीति योजनाम् गन्तव्यम् च बहुपक्षीय योजनाभिः संयोज्य अग्रे वर्धनाय बलम् प्रादात्। प्रधानमन्त्री ओली उत्पादन वृद्धिम् मानवीय भौतिक विकासम् च सैव नीत्वा अग्रे वर्धनीयमिति प्रावोचत्। नेकपा माओवादी केन्द्रस्य पक्षतः कोशी प्रदेश सर्वकारे सहभागिनः त्रय मन्त्रिणः एको राज्यमन्त्रिश्च त्यागपत्रम् दत्तवन्तः। विराटनगरवर्तिनी मुख्यमन्त्री मन्त्री परिषदः कार्यालये मुख्यमन्त्रिणः हिक्मत कुमार कार्किणः समक्षम् भौतिक पूर्वाधार विकास मन्त्री गणेश उप्रेती, स्वास्थ्य मन्त्री राजेन्द्र कुमार कार्की, पर्यटन वन वातावरण मन्त्री नारायण बहादुर मगर, पर्यटन राज्य मन्त्री वन्दना झागरश्च त्यागपत्रम् अदुः। माओवादी संसदीय दलस्य नेता इन्द्रबहादुर आङ्बो मन्त्रिभिः त्यागपत्रे दत्तेऽपि सर्वकाराय दत्तम् समर्थनम् यथावदस्तीति असूचयत्। कोशी प्रदेश सभायाम् नेकपा माओवादी केन्द्रस्य त्रयोदश सांसदाः वर्तन्ते। प्रधानमन्त्रिणः केपी शर्मा ओलिना समक्षम् रूकुमा पश्चिम रूकुमा पूर्व जनपदयोः नेपाली कांग्रेस दलस्य नेकपा एमाले दलस्य च नेतृभिः सांसदैश्च जाजरकोट भूकम्पात् प्रभावितैः प्रायोजनैः अस्थायी वासस्य कृते अनुदानवृत्तिः अधुनावध्यपि नोपलब्धेति विषये ध्यानाकर्षणम् विहितमस्ति। बालवाटारवर्तिनी प्रधानमन्त्री निवासे प्रधानमन्त्रिणा ओलिना सह रूकुमा पश्चिम रूकुमा पूर्व जनपदयोः प्रतिनिधिभिः गत कार्तिक मासस्य सप्तदशे दिवसे दुरापन्नात् भूकम्पात् प्रभावितानाम् जनानाम् कृते सर्वकारेण प्रथम द्वितीय चरणयोः अनुदानवृत्तिः शीघ्रम् प्रदातुम् अनुरोधो व्यधायि। ज्ञापनपत्रे पुनर्निर्माणाय राष्ट्रिय पुनर्निर्माण प्राधिकरणस्य आयोजना कार्यालयस्य स्थापनायै च याचनापि कृतास्ति। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ भाषते देशे स्थायी सर्वकारस्य सत्वा तथा परम जनतायाः आशावादिन्यः सम्पादनत्वेन कार्यं विधातव्यम्। कम्प्यूटर एसोसिएशन नेपाल महासंघेन काष्ठमण्डपे पूर्वेद्युः आयोजिते कार्यक्रमे मन्त्री गुरूङ विकसित राष्ट्रेष्वैव विकासस्य लक्ष्यम् अधिगन्तुम् कर्मचारी संयन्त्रस्य सर्वकारस्य च मध्ये सुदृढम् सहकार्यम् विधेयमिति न्यश्चिनोत्। ऊर्जो जलस्रोत सेचन मन्त्री दीपक खड्का वर्षद्वयस्य अभ्यन्तरे सर्वेषाम् नागरिकाणाम् गृहेषु विद्युत् सेवायाः प्रापणत्वेन सर्वकारः अग्रे वर्धित्वस्तीति सूचयति। सामुदायिक विद्युत् उपभोक्तृ राष्ट्रिय महासंघस्य विंश स्थापना दिवसस्य अवसरे ह्य आयोजितम् कार्यक्रमम् सम्बोधयन् मन्त्री खड्का सम्प्रति प्रतिशतम् 98 क्षेत्रे विद्युत् प्रापिता अस्ति, वर्षद्वयस्य अभ्यन्तरे एव लक्ष्यस्य अधिगमनत्वेन कार्यम् विधीयमानम् अस्ति इति च असूचयत। नैज क्षेत्रस्य समस्यायाः समाधानत्वेन आत्मना कार्यम् करिष्यते इति प्रतिबद्धताम् अभिव्यज्य ऊर्जो मन्त्री खड्का सहकार्यम् सम्पादयितुम् सजता भविष्यतीति विश्वासं व्यक्तवान्। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री बद्री प्रसाद पाण्डे राजनीतिक स्थिरतायै नेपाली कांग्रेस दलम नेकपा एमाले दलम च एकस्मिन् स्थाने समायाते स्तः इति स्पष्टीकरोति। लुम्बिनी प्रदेशस्य अतिथिगृह व्यवसाय महासंघस्य तृतीय वार्षिकीम् साधारण सभाम् द्वितीयम् अधिवेशनम् च उद्घाटयन् मन्त्री पाण्डे स्थिर शासन नस्य आधार भूमि निर्मातुम् आगामी निर्वाचनम् यावत् नेपाली कांग्रेस दलम नेकपा एमाले दलञ्च सहकार्यम् करिष्यत इति विश्वासम् व्यक्तवान्। सुशासनाय आर्थिक समृद्धये च सर्वकारः प्रतिबद्धोऽस्ति इति च मन्त्री पाण्डे अवोचत। मन्त्री पाण्डे पर्यटन नीतिम् समय सापेक्षाम् विधातुम् स्वनियुक्तेः अनुपदमेव मासत्रयाभ्यन्तरे प्रतिवेदनस्य प्रस्तुष्यमाणत्वेन कार्यदलम् संघटितम् अस्ति इति असूचयत। परराष्ट्र मन्त्रिणा डाक्टर आरजू राणा देववा इत्यनया सह नेपालस्य कृते यूरोपीय संघस्य राजदूतेन भेरोनिक लोरेन्जो इत्यनेन मेलवार्ता विहिता अस्ति। मन्त्रालय स्थितस्य राणा इत्यस्याः कार्यकक्षे सम्भूते अनयोर्मेलने नेपालस्य यूरोपीय संघस्य च सम्बन्धस्य विविधेषु पक्षेषु विमृष्टमिति परराष्ट्र मन्त्रालयेन ज्ञापितम् वर्तते। इति समाचाराः।